एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। नेकपा एमाले दलस्य ललितपुरे संचालतः द्वितीय महाधिवेशनस्य अन्तर्गतम् द्वितीय दिनस्य अन्तरसत्रम् सम्पन्नमस्ति। ललितपुरस्य गोदावरी स्थानीय संचालति द्वितीय महाधिवेशने ह्य प्रस्तुतानि सप्त राजनीतिक प्रतिवेदनानि आधृत्य समूहगत विमर्शनस्य समापनेन सहैव ह्यस्तनम् अन्तरसत्रम् सम्पन्नमिति एमाले दलीय प्रचार प्रकाशन विभागस्य प्रमुखः राजेन्द्र गौतमः असूचयत्। महाधिवेशने सहभागिनः प्रतिनिधय प्रदेश उपत्यका केन्द्रीय संरचनानाम् आधारेण विभिन्नेष् दशसु समूहेष् विभज्य प्रतिवेदनानि आधृत्य विमर्शनम् विहितम्। अद्य समूहस्य नेत्रा स्वस्व समूहे विहितस्य विमर्शनस्य निष्कर्षस्य प्रस्तुतेः कार्यतालिका अस्ति इति नेकपा एमाले दलस्य प्रचार विभाग प्रमुखः गौतमः असूचयत्। समूह नेतृभिः स्वस्व समूहस्य निष्कर्षस्य प्रस्तुतेः पश्चात् उपवेशे विमर्शनस्य क्रमे प्राप्तानां परामर्शनानाम् अद्य दलाध्यक्षेण प्रधानमन्त्रिणा च उत्तर प्रदानस्य कस्मिंश्चित् विषये असहमतौ सत्याम् अद्यैव मतदानेन तस्य विषयस्य निष्कर्षे प्रापणस्य च कार्यतालिका अस्ति इति एमाले दलेन ज्ञापितं वर्तते। तत्पूर्वं ह्य अन्तरसत्रे विधान संशोधन प्रस्तावं प्रतिवेदनानि च आधृत्य विमर्शनात् पूर्वं स्थायी समितेः सदस्येन कर्णबहादुर थापा इत्यनेन वक्तुम् ईप्सितम् आसीत्। तदवसरे अध्यक्ष ओली समयस्य व्यवस्थापनाय स्वस्य विषयं स्वसमूहे एव प्रभावकारिरूपेण उपस्थापयितुं थापाविदम् अनुरुद्धवान्। अध्यक्ष ओली थापाविदस्य मूल प्रतिवेदने कथंविधमपि वैमत्यं नास्ति, विधान संशोधनस्य प्रस्तावे समूहे एव विमर्शनं कर्तुं शक्यते इति च चर्चयन् अन्य प्रतिनिधिभिः अपि वक्तुम् ईप्सिते सति समयः प्रदातव्यो न वेति प्रश्नः उद्भाविष्यतीत्यतः समूहे एव विमर्शनं कर्तुं थापाविदम् अन्यान् सहभागिनः प्रतिनिधिन् च अनुरुणत्। नेपालगंज वर्तिनी भेरी चिकित्सालय मस्तिष्काघातस्य रोगिणां कृते अल्ट प्लेज नामकं टीकौषधं निःशुल्कं प्रदास्यते। अनेन टीकौषधेन पक्षघातात् संरक्षणं विधास्यते इति चिकित्सालयस्य स्वास्थ्य औषध विभागस्य प्रमुखः डॉ राजन पाण्डेयः असूचयत्। डॉ पाण्डेयः पक्षघातस्य लक्षणस्य अनुसारेण चिकित्सालये प्रविष्टेभ्य रोगिभ्य निश्चिते समये अस्य टीकौषधस्य प्रदानेन रोगिणः पूर्वस्यामेव अवस्थायां प्राप्तुं शक्नुवन्ति इति अवदत्। भाद्रशुक्ल पूर्णिमायां तिथौ अद्य रविवासरे खग्रास चन्द्रग्रहणं भविष्यति इति नेपाल पञ्चाङ्ग निर्णायक विकास समित्या ज्ञापितं वर्तते। ग्रहणस्य स्पर्श अद्य रात्रौ एकादश कलोत्तर दशवादने भविष्यति इति पञ्चाङ्गेषु उल्लिखितं वर्तते। रात्रौ षट्पञ्चाशत् कलोत्तरैकादशवादने मध्य भविष्यति, रात्रौ एकचत्वारिंशत् कलोत्तरैकादशवादने ग्रहणं समाप्स्यति इति समितेः पूर्वाध्यक्षः प्राध्यापकः श्रीकृष्ण अधिकारी असूचयत्। प्राध्यापकः अधिकारी काष्ठमण्डपे सार्धघण्टात्रयं यावत् चन्द्रग्रहणं द्रष्टुं शक्यते इति असूचयत्। ग्रहणमिदम् अस्य वर्षस्य प्रथमं वर्तते। आगामिनः फाल्गुनमासस्य पूर्णिमायां तिथौ खण्डग्रास चन्द्रग्रहणं भविष्यति इति समित्या ज्ञापितं वर्तते। शास्त्रीय मान्यतायाः अनुसारेण अद्य दिवा एकादश कलोत्तरैकवादनस्य पश्चात् बाल वृद्धातुरजनेभ्य अन्येषां सामान्यजनानां कृते भोजनं निषिद्धं वर्तते। वृष्टेः समृद्धेश्च देवस्य इन्द्रस्य पूजाराधनपूर्वकं ह्य परम्परागतम् इन्द्रयात्रा पर्व समायोजितम्। नेपाले लिच्छविकालात् प्रचलितं पर्वेदं काष्ठमण्डप भक्तपुर पाटन धुलिखेल दोलखा प्रभृति स्थलेष् आयोज्यते। इन्द्रयात्रायाः अवसरे धार्मिक परम्परायाः अनुसारेण राष्ट्रप्रमुखस्य रूपेण ह्य राष्ट्रपतिः रामचन्द्र पौडेलः काष्ठमण्डपस्य हनुमद्वारवर्तिनी राजसिंहासनोपवेशे श्रीगणेशस्य श्रीभैरवस्य जीवितदेव्याः रूपेण विद्यमानायाः श्रीकुमार्याश्च रथयात्रां व्यलोकयत्। इन्द्रयात्रा पर्वणः दर्शनाय उपराष्ट्रपतिः रामसहाय प्रसाद यादवः, प्रधानमन्त्री केपी शर्मा ओली, सभामुख देवराज घिमिरे, राष्ट्रसभायाः अध्यक्षः नारायण प्रसाद दाहालः, सर्वकारस्य उच्चपदाधिकारिणश्च सहभागिनः आसन्। यात्रायाः अवलोकनाय प्राप्तानां विशिष्टजनानां स्वागतं काष्ठमण्डप महानगरपालिकायाः प्रमुखेण बालेन सहाय इत्यनेन विहितम् आसीत्। नागडुङ्गा सिस्ने खोला गुहा मार्गस्य निर्माण कार्यम् अन्तिमे चरणे प्राप्तमस्ति। अस्यैव आश्विन मासस्य अभ्यन्तरे निर्माणस्य सम्पूर्णं कार्यं सम्पाद्य आगामिनः पौषमासात् मार्गममुं पूर्णतया सञ्चालने आनेतुं कार्यं जायमानमस्ति इति नागडुङ्गा गुहा मार्ग निर्माण आयोजनया ज्ञापितं वर्तते। गुहा मार्गस्य सञ्चालनेन नागडुङ्गा क्षेत्रे जायमाना यातायातावरोध समस्या समाधास्यते। काष्ठमण्डपे गमनागमनस्य स्थितिरपि सरला भविष्यति इति विश्वसितं वर्तते। नेपाली कांग्रेस दलस्य कार्य सम्पादन समितेः उपवेशः अद्य वसति। कार्य सम्पादन समितेः उपवेशः अद्य प्रातः नववादने बुढा नीलकण्ठवर्तिनी सभापतेः देउवाविदस्य निवासे वसति इति दलस्य मुख्य सचिवः कृष्णप्रसाद पौडेलः असूचयत्। सर्वकारीय सेवा दिवसः अद्य विविधै कार्यक्रमैः सह समायोज्यमानोऽस्ति। द्वादशोत्तर द्विसहस्रतम विक्रम वर्षस्य भाद्रमासस्य द्वाविंशे दिवसीय सर्वकारीय सेवा सम्बद्धादि नियमस्य प्रारभण दिवसमुद्दिश्य प्रत्येकं वर्षे अद्यतन दिवसः सर्वकारीय सेवा दिवसत्वेन समायोज्यमानो वर्तते। दिवसस्य अवसरे अद्य मूल समारोह समित्या विशेष कार्यक्रमः आयोज्यते। युवकविना रूपकालंकारेण विरचितः शान्त सर्वरी नामकः कविता संग्रह लोकाय अर्पितोऽस्ति। पूर्वेद्युः काष्ठमण्डपे आयोजिते कविता संग्रह लोकार्पण कार्यक्रमे प्राध्यापक डॉ भागवत ढकालः, डॉ बिन्दु शर्मा, साहित्यकारः भुवन हरि सिग्देलः, शैलेन्द्र अधिकारी च पुस्तकम् आधृत्य टिप्पणीं विहितवन्तः। कवेः अलंकारस्य एतत्पूर्वमेव त्रीणि पुस्तकानि प्रकाशितानि सन्ति।